प्रश्या आवाश्वधृष्टजार्चा मरुद्भिररक्वभिः ये अद्रोघमनुष्वधम् श्रवो मदन्ति यज्ञजाः ते हि स्थिरस्य शवसः सखा आजः सन्ति धृष्णुजा ते यामन्नादृशद्विनस्मना आपान्तिशश्वतः ते स्पन्द्रासो नोक्षणो तिष्कन्दन्ति शर्वरीः मरुतामधामहो दिविक्षमा च मन्महे मरुत्सुवो दधीमहि स्तोमयी यज्ञम् च धृष्णुजा विश्वे दे मानुषा जुगापान्तिमर्त्यम् वृषः अर्हन्तो ये सुदानवो नरो असामिषवसः प्रयज्ञै यज्ञिरेभ्यो दिवो अर्चा मरुद्भ्याः आरुक्मैराजुधा नरऋष्वारुष्टेरसृक्षत अन्वेनाङ्कः विद्युतो मरुतो जज्झतेरिव भानुरर्तत्मना दिवः ये वा वृधन्त पार्थिवाज उरावन्तरिक्षा वृजने वा नदीनाम् सदस्थे वा महो दिवः शर्धो मारुतमुच्छम् स सत्यशव समृभसम् उत स्मते शुभे नरः प्रस्पन्द्राजुजतत्मना उत स्मते परुष्ण्यामूर्णा वसत शुन्ध्यवाः उत पव्यारथा नामद्रिम् भिन्दन्त्योजसा आपथयो विपथयोऽन्तःपथा अनुपथाः एतेभिर्मह्यन्नामभिर्यज्ञम् विष्टार ओहते अधानरोऽन्यो ओहते धा नियुत ओहते अधापारावता इति चित्रारूपाणि दर्श्या छन्दस्त्वभः क्वभञ्जम उत्समाकीर्णो नृतुः ते मे केचिन्नताज व ऊमा आसन्दृशिद्विषे यरिष्वारिष्टिविद्युतः कवयः सन्ति मेधसाः अमृषे मारुतम् गणम् नमस्या रमया गिरा अच्छर्षे मारुतम् गणम् दानामित्रन्न योषणा दिवो वा धृष्णव ओजसा स्तुताधिभिरिषण्यत नोमन् बान एषाम् देवाङ्गच्छान भक्षणा दाना सचेतसोरभिर्यामश्रुतेभिरञ्जिभिः व्रजे मे बन्ध्वेषे काम् वोचन्त सोरजः प्रश्निम् वोचन्त मातरम् अधा पितरमिष्मिणम् रुद्रम् वोचन्त शिक्वसः सप्तमे सप्तशाकिन एकमेका शता ददुः यमुना आजामधिश्रुतमुद्राधो गव्यम् व्रजे निराधो अश्व्यम् व्रजे